एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दहाल। प्रधानमन्त्री केपी शर्मा ओली भासते देशम विकासस्य समृद्धेश्च मार्गे अग्रे वर्धयितुम् सर्वकारः प्रतिबद्धोऽस्ति। स्थापत्य दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली देशस्य विद्यमानावस्थायाः विषये सर्वकारः गभीरसन् समस्यानां समाधानाय प्रतिबद्धोऽस्तीति अभासत। कार्यक्रमे भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहाल राजनीतिक स्थायित्वाय देशस्य विपुल दलद्वयं मिलित्वा सर्वकार संघटितोऽस्तीति चर्चयन् सर्वकारस्य असफलतायै अवकाशो नास्तीति अवोचत। ऊर्जोजल स्रोत सेचन मन्त्री दीपक खड्का यूनां देशाभ्यन्तरे एव वृत्तपार्जनस्य व्यवस्थां विधातुं सर्वकार प्रयासरतो वर्तते इत्यवोचत्। प्रधानमन्त्रिणा केपी शर्मा ओलिनः प्रमुख राजनैतिक परामर्शदातृपदे विष्णु रिमालः नियुक्तोऽस्ति। सिंहप्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविष्टेन मन्त्री परिषदः उपवेशेन एमाले दलस्य नेता विष्णु रिमालः प्रधानमन्त्रिणः प्रमुख राजनैतिक परामर्शदातृपदे नियुक्तो वर्तते। एवमेव प्रधानमन्त्रिणः आर्थिक परामर्शदातृपदे डाक्टर युवराज खतिवडा नियुक्तोऽस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ असूचयत्। उपवेशेन मन्त्री परिषदः अन्तर्गताः विभिन्नाः पञ्च समितिः संघटयितुं निर्णीतम् अस्तीति मन्त्री गुरूङ असूचयत्। उपवेशेन राजनैतिक समितेः संयोजक पदे उपप्रधान नगरीय विकास मन्त्रिणं प्रकाशमान सिंहं प्रशासन समितेः संयोजक पदे संचार सूचना प्रविधि मन्त्रिणं पृथ्वी सुब्बा गुरूङ इत्यमुं सामाजिक समितेः संयोजक पदे श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणं शरद सिंह भण्डारिणं च नियोक्तुं निर्णीतमस्ति। एवमेव विधेयक समितेः संयोजक पदे गृहमन्त्रिणं रमेश लेखकम् आर्थिक पूर्वाधार समितेः संयोजक पदे उपप्रधानार्थ मन्त्रिणं विष्णु पौडेलं च नियोक्तुं निर्णीतम् अस्तीति च संचार मन्त्री गुरूङ असूचयत्। सभामुखेन देवराज घिमिरे विदेन राजनीतिक दलानां प्रमुख सचेतक पदीयैः सह प्रतिनिधि सभायाः संचालनाय समय तालिकायाः निर्धारणस्य प्रधानमन्त्रिणा केपी शर्मा ओलिना विश्वासस्य मतस्य ग्रहणाय प्रेषितायाः सूचनायाश्च विषययोः विमृष्टमस्ति। संघीय संसद सचिवालये ह्य सम्पन्ने उपवेशे प्रधानमन्त्रिणः विश्वासस्य मतस्य सभायाः आगामिनां पञ्चदश दिनानां कृते समय तालिका निर्माणस्य विभिन्नासु समितिषु सभापतिनां चयनस्य च विषयेषु विमृष्टमिति एमाले दलस्य प्रमुख सचेतक पदीयो महेश बर्तौला अज्ञापयत्। उपवेशे कार्यव्यवस्था परामर्श समितेः पुनः संघटनस्य संसदीय श्रवण समितेः सभापतेः चयनस्य संघीय संसद विभिन्नानां समितिनां सभापतीनां चयनस्य संसदि विद्यमानानां विधेयकानां च विषयेषु विमृष्टमस्तीति माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे अज्ञापयत्। लोसपा नाम्नो लोकतान्त्रिक समाजवादी दल नेपालेन प्रधानमन्त्रिणे केपी शर्मा ओलीने विश्वासस्य मतं दातुं निर्णीतमस्ति। दलाध्यक्षस्य महन्त ठाकुरस्य अध्यक्षतायां ह्य उपविष्टेन संसदीय दलस्य उपवेशेन प्रधानमन्त्रिणे ओलीने विश्वासस्य मतं दातुं निर्णीतमस्तीति लोसपा दलस्य प्रमुख सचेतक पदीयो रामप्रकाश चौधरी अज्ञापयत्। लोसपा दलस्य पक्षता नेता शरद सिंह भण्डारी श्रमवृत्ति सामाजिक सुरक्षा मन्त्री विद्यते। प्रतिनिधि सभायां लोसपा दलस्य चत्वारः सांसदाः सन्ति। प्रधानमन्त्री केपी शर्मा ओली परश्वः रविवासरे प्रतिनिधि सभायां विश्वासस्य मतं गृहीता। अविरलवृष्टेः कारणेन दुरापन्नासु जलविप्लव भूस्खलन जलनिमग्नतासु निपत्य ह्यस्तन दिवसं यावत् पञ्चविंशति अधिक शतम् जनाः मृताः सन्ति चेत् अष्टौ जनाः विलुप्ताः वर्तन्ते। गत ज्येष्ठ मासस्य अष्टाविंशात् दिवसात् अधुनावधि विभिन्नेषु स्थानेषु दुरापन्नासु जलविप्लव भूस्खलनादि घटनासु निपत्य एतावन्तो जनाः मृताः सन्तीति प्रहरी प्रधान कार्यालयेन ज्ञापितम् वर्तते। बिलुप्तानम जनानाम अन्वेषण कार्यम जायमानम अस्तिति च प्रहरिणा ज्ञापितम वर्तते। विपदजन्य घटनासु द्व्यशीत्यधिक शतम गृहाणि जलमग्नानि सन्ति चेत् द्वाविंशत्यधिक शतद्वय गृहेषु अशीत्याम गोष्ठेषु त्रिचत्वारिंशति सेतुषु एकस्मिन् विद्यालय भवने द्वयोः सर्वकारीय कार्यालयश्च महती क्षति प्राप्ता स्थिति च प्रेरणा ज्ञापितमस्ति। गताषाढ मासस्य अष्टाविंशे दिवसे चितवन जनपदस्य मुंगलिंग नारायणगढ़ मार्ग खण्डान्तर्गते सिमलताल स्थाने भूस्खलनेन त्रिशूली नद्यां पतितस्य बसयान द्वयस्य यात्रिषु मध्ये ह्य शुक्रवासरम यावत् एकोनविंशतेर जनानाम सभाः प्राप्ताः सन्ति। तेषु चतुर्दश जनानाम सत्यापनम सम्भूतमस्ति। पञ्च जनानाम अधुनावधि परिचयः अवगतो नास्ति। प्राप्तेषु सवेषु चतुर्दश जनानाम परिचयः अवगतोस्ति। अन्य पञ्च सभा सत्यापिताः न वर्तन्ते। अन्येषां यात्रिणां बसयानद्वयस्य च दुर्घटनास्थलात् नवलपरासी जनपदस्य त्रिवेणीस्थानं यावत् अत्याधुनिक प्रविधिना अन्वेषण कार्यं जायमानम् अस्तीति अन्वेषण कार्य संलग्नेन सशस्त्र प्रहरी बलेन ज्ञापितं वर्तते। उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी भासते तम्बाकू जन्य पदार्थेषु करवृद्धि कर्तुं न सक्तास्ति। प्रतिनिधिसभायाः अन्तर्गतायाः उद्योग वाणिज्य श्रमोपभोक्तृहित समितेः ह्यस्तनोपवेशे तम्बाकूजन्य पदार्थ सम्बद्धोद्योगानां क्षमतायाः विवृद्धये विहिते विमर्शने मन्त्री भण्डारी अन्यत्र देशेषु तम्बाकूजन्य पदार्थेषु 70% अधिकः करग्रहणस्य व्यवस्थायां सत्याम् अस्माभिः तत्रस्थाभ्यासस्य अवलम्बनं कर्तुं शक्तं नास्तीति अवोचत। उपवेशे सर्करोद्योगानाम् इच्छुक कृषकाणां च समस्यायाः समाधानाय परामर्श संकलनोप समितेः संयोजकः कृष्ण कुमार श्रेष्ठः प्रतिवेदनं प्रस्तुतवान् आसीत्। तथैव कतिपयोद्योगेषु प्रयुक्तानां वस्तूनां सीमा प्रवेश शुल्कान्त शुल्काध्ययनानुगमनोप समितेः संयोजकः रेखा यादवः समितेः प्रारम्भिकं प्रतिवेदनं प्रस्तुतवती। सहकारी संस्थानां वित्तस्य दुरुपयोगस्य सम्बन्धे संघटितया संसदीयानुसन्धान विशेष समितिया ह्य सहकारी क्षेत्र सम्बद्धै संचारकर्मभिः सह विमृष्टं वर्तते। विमर्शने समितेः सभापति सूर्यबहादुर थापा सहकारी संस्थानां समस्यां निश्चित्य समाधातुं संचारकर्मिणां भूमिका महत्वपूर्णा भवतीति उदैरयत। विमर्शने सभापतिः थापा समस्याग्रस्तानां सहकारी संस्थानां विषये अधुनावधि संचारमाध्यमैः उत्थापिताः विषयाः महत्वपूर्णाः सन्ति। इतोऽपि गभीरेण समाचारं सार्वजनिकर्तुं सहकार्याय समिति तत्परास्तीति च अगदत्। विमर्शने समितेः कार्यम् अन्तिमचरणे प्राप्तमस्तीति विज्ञापितम् आसीत्। प्रतिनिधिसभाया शिक्षा स्वास्थ्य सूचना प्रविधि समिते ह्यस्तनोपवेशे समित्या अशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं शिक्षा विधेयकमाधृत्य संशोधन कर्तृभिः सांसदैः सह विमृष्टमस्ति। विमर्शने संशोधन कर्तृ सांसदैः शिक्षाम् उद्यमेन योजयितुं शिक्षकेभ्यः सर्वकारीय कर्मचारिभिः समं सौविध्यं प्रदेयं चेति उक्तमासीत्। सांसदाः स्थानीय स्तरेषु शिक्षकाणां स्थानान्तरण प्रणाली व्यवस्थिता विधातव्या, विद्यालयानां नामानि स्वदेशस्य सम्पत्सु आधृतानि विधातव्यानि चेति बलं प्रादुः। नेपाल सर्वकारस्य महान्यायाधिवक्ता रमेश बडाला ह्य पदभारं निर्वहत। महान्यायाधिवक्तुः कार्यालये पदभारं निर्वहन् महान्यायाधिवक्ता बडाला संविधानस्य विदेश परिदेव स्थित्वा पीडितेभ्यो जनेभ्य अधिकतम न्याय प्रदास्यते इति प्रतिबद्धतां व्यक्तवान् इति समाचाराः।